ऋतं देवाय कृण्वते सवित्र इन्द्राजाहिघ्ने नरमन्त आपाह अहरहर्यात्यक्तुरपाङ्गिजात्या प्रथमः सर्ग आसाम् यो वृत्राजसि नमत्र भरिष्यत्प्रदञ्जनित्रे विदुष उवाच अथो रदन्तेरनुजोषमस्मै दिवे दिवे धुनजोजन्त्यर्थम् ऊर्ध्वाह्यस्थादध्यन्तरिक्षेधा वृत्राज प्रबधञ्जभार मिहम्बसा न उपहीमदुद्रोत्तिक्माजुधो अजयच्छत्रुमिन्द्राः बृहस्पते तपुषाष्णे एव विद्यवृकद्वरसो असुरस्य वीरान् यथा जघन्थदृशता पुरा चिदेवादहि शत्रुमस्माकमिन्द्र अपक्षिपदिवो अश्मानमुच्चाजेन शत्रुम् मन्दसानो निजोर्वाह तोकस्य सातो ननजस्य भोरे रस्माम् अर्धम् कृणुतादिन्द्रगोना प्रहिक्रतुम् बृहथोजम् वनुथो रद्रस्य स्थोजमानस्य चोदौ इन्द्रा सोमाजुममस्माम् अविष्टमस्मिन् भजस्थे कृणतमु लोकम् नमातमन्नश्रमन्नो ददन्द्रन्नवो च मम सुनोतेति सोमम् यो मे प्रणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्दमुपगोभिराजत सरस्वति त्वमस्माम् अविड्ढि मरुत्पदे दृशति जेशिशत्रोन् यञ्चिच्छर्धन् दन्तविषीजमाडमिन्द्रो हन्ति वृषभम् षण्डिकानाम् यो नः सनुत्य उत वा जिघत्नुरभिख्याजतन्ति गितेन विद्या बृहस्पत आजुधैर्जेशिशत्रोन्द्रुहेरीशन् दम्परिधेहि राजन् अस्माकेभिः सत्त्वभिः शूरशूरैर्वीर्याग्रधिजानि ते कर्त्वानि ज्योगभोवन्ननुधोपिदासो हत्वेतेषामाभरानो वसूनि तम् भश्यर्धम् मारुतम् सुम्नजुर्गिरोपब्रुवे नमसा दैव्यम् जनम् यथा रजिम् सर्ववेरन्नशा महा अपत्यसाचम् श्रुत्यम् दिवे दिवे